सर्वेभ्यः नमस्कारः। अद्य सिद्धान्तकौमुद्याः स्त्रीप्रत्ययप्रकरणे सप्तमः पाठः, नवम्बर् मासस्य षष्ठः दिनाङ्कः। येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। अदौ अष्टाध्यायीं पठामः। रविचन्द्रन्जी, रेडि? या प्रातिपदिकात् ष्टाभ्याभ्यस्भ्याभ्यस्भ्याभ्यस् नसिभ्याम्भ्यस् नसोसाम् नियोस्सुप् स्त्रियाम् अजाद्यतष्टाप् ऋणेभ्यो ङीप् उगितश्च मनोरथ पादोऽन्यतरस्याम् ताब्रचि न षट्स्वस्रादिभ्यः मनः अनो बहुव्रीहेः डाबुभाभ्याम् अन्यतरस्याम् अनुपसर्जनात् टिड्ढाणै द्वयसच् दघ्नै मात्रच् तयप्थक्थै कैक्वरपः यन्यश्च प्राचाम्ष्ठतद्धितः सर्वत्र लोहितादिकतन्तेभ्यः कौरव्यमाण्डूकाभ्याम् च वयसि प्रथमे द्विगोः स्त्रीप्रत्ययप्रकरणम् इत्त्वविकल्पानि सूत्राणि अधीयन्ते। त्वविधायकं सूत्रमासीत् प्रत्ययस्थात् कात् पूर्वस्य अत इदात् स्पः, ततः नयासयोः इत्यादिभिः इत्त्वं निषिद्धम्। इदानीम् इत्त्वविकल्पः अधीयते। उदीचा मातस्थाने यकपूर्वायाः आकारस्य स्थाने स्त्रीप्रत्ययाकारस्य स्थाने यः आकारः यकपूर्वः तस्य इकारः विकल्पेन भवति। सूत्रमधीतम् आर्यका आर्यिका
तथैव चटकका चटचिका इत्यत्र यथा। ततः भक्तलेशात् आज्ञात् वा स्वा नैपूर्वाणामपि इति सूत्रम् अधीयमानमस्ति। एतेषां षण्णां भक्त्रा एषा अजा ज्ञा द्वा स्वा इति षण्णां अकारस्य इकारः विकल्पेन भवति इति अधीतम्। आदौ भस्त्रा शब्दः अस्ति, भस्त्रा शब्दस्य नित्यस्त्रीलिङ्गत्वात् अग्रिमसूत्रेण अभाषितपुंस्काच्च इत्यनेनैव विकल्पः सिद्ध्यति। तर्हि अस्मिन् सूत्रे किमर्थं तस्य शब्दस्य ग्रहणम् इति चेत् उपसर्जनस्यापि भवति इत्येतदर्थम्। उपसर्जनं यदा भवति भस्त्रा शब्दः तदा भाषितपुंस्कत्वं भवति, अन्यविशेषणत्वात् त्रिषु लिङ्गेषु अपि भवति। तदा तु अग्रिमसूत्रेण अभाषितपुंस्काचरितसूत्रेण इत्त्वविकल्पः न सिद्ध्यति, तत्रापि इत्त्वविकल्पसाधनार्थम् अस्मिन् सूत्रे ग्रहणम्। अत एव उदाहरणमपि दत्तं, निर्भस्त्रिका निर्भस्त्रका इति दृष्टान्तः भस्त्रायाः अथवा निर्गतः भस्त्रायाः इति विग्रहे भस्त्राशब्दः अत्र उपसर्जनम्, उपसर्जनत्वेपि इत्त्वविकल्पः भवेत् इत्येतदर्थम् अस्मिन् सूत्रे भस्त्राशब्दस्य ग्रहणम्। ततः एषा इत्यत्र कृतशब्दनिर्देशात् प्रथमैकवचने एव इत्त्वविकल्पः एषका एषिका, अन्यत्र इत्त्वविकल्पः नास्ति, एतिके एतिकाः इति प्रत्ययस्थात् इति सूत्रेण नित्यमेव इत्यम् इत्त्वम् इति एकः अंशः। सपूर्वस्य न भवति इत्यपरः अंशः, केवलस्य शब्दस्यैव एतकद् इति ककारः अपेक्ष्यते, तत्र प्रत्ययस्थात् कात् इति अनुवर्तते इत्यतः प्रत्ययस्थः ककारः अपेक्ष्यते, अतः अकत्सहितस्य भवति। किन्तु सपूर्वस्य पूर्वपदं यदा भवति अनेषक इति वा परमैषक इति वा तत्र न भवति। किमर्थं न भवति? प्रत्ययस्थात् कात् पूर्वस्य अत यदा व्यसुपः इत्यतः असुपः इत्येन वर्तते, आप् सुपः परो न भवेत्। यदा तु समासः क्रियते समासानन्तरं टाप् विधीयते, तत्र टाप् प्रत्ययः समासात् सुपः परः भवति, समासे यः लुप्तः सुप्रत्ययः तस्मात् परः भवति। तस्मात् तदा यदा पूर्वपदमस्ति तदा इत्त्वविकल्पः न भवति, प्रत्ययस्थात् कात् इत्यनेन नित्यमेव इत्त्वं भवति। अजा ज्ञा इति द्वयोः शब्दयोः केवलयोरपि इत्त्वविकल्पः भवति, सपूर्वाणामपि इत्त्वविकल्पः भवति। केवलयोः उदाहरणम् अजदा अधिका इति, एवं यकाज्ञिका इति, सपूर्वाणामपि भवति, यथा परमादका इति चेत् परमादिका इत्यादि भवति। द्विशब्दस्य अत्रापि सपूर्वस्य न भवति, केवलस्य द्विशब्दस्य द्वे इत्यस्ति अकचि कृते द्वके इत्येकं द्विके इत्यपरम् इत्त्वविकल्पः भवति। पूर्वपदमस्ति चेत् असुपः इति प्रतिषेधात् अस्य सूत्रस्य प्रवृत्तिः न भवति इत्यर्थः। तत्र इत्त्वमेव न भवति, प्रत्ययस्थादित्यस्यापि असुपः इति प्रतिषेधः भवति, अतः अनेषका परमैषक एवम् अद्वके परमद्वके कुत्रापि इत्त्वं न भवति इत्येव निर्णयः। अन्तिमः शब्दः अस्ति सूत्रे स्मा इति, भस्त्रा एषा अजा ज्ञा द्वा स्वा। स्वशब्दविषये इदानीं विचारः अस्ति, स्वशब्दग्रहणं संयोगसर्जनार्थम् इति उक्तं। स्वशब्दस्य चतुर्षु अर्थेषु विद्यते शब्दः, आत्म आत्मीय ज्ञाति धन इति चत्वारः अर्थाः भवन्ति स्वशब्दस्य। तत्र आत्मार्थे आत्मीयार्थे च स्वशब्दस्य सर्वनामसंज्ञा अस्ति। स्वम् अज्ञाति धनाख्यायां, ज्ञात्यर्थे धनार्थे च सर्वनामसंज्ञा न भवति, अन्येषु अर्थेषु सर्वनामसंज्ञा अस्ति इति प्रथमः अंशः स्मरणीयः। अन्यच्च संयोपसर्जनं यदा भवति तदा सर्वनामसंज्ञा न भवति, संयोपसर्जनी भूतास्तु न सर्वादयः इति पूर्वमेव दृष्टम्। अतः संज्ञायाम् अर्थात् स्व इति कस्यचित् नाम भवति चेत् अथवा उपसर्जनं भवति चेत् तत्रापि सर्वनामसंज्ञा न भवति इत्यर्थः। इदानीम् अत्र उच्यते स्वशब्दग्रहणं संयोपसर्जनार्थम्। अस्मिन् सूत्रे स्व इति उच्यते किल, तेन किं गृह्यते? सर्वनामसंज्ञकः स्वशब्दः गृह्यते वा अन्यः गृह्यते वा इति चेत् संयोपसर्जनीभूतः स्वशब्दः एव गृह्यते इति उच्यते। किमर्थम् इति प्रश्नः। इह हि आतः स्थाने इति अनुवृत्तं स्वशब्दस्य आतौ विशेषणम्। उदीतामातस्थाने एव पूर्वायाः इत्यनेन आतः स्थाने इति अनुवर्तते भस्त्रैषा इति सूत्रे। अनुवृत्तं केन सम्बध्नाति इति प्रश्नः। तदा उच्यते स्वशब्दस्य आतः एव विशेषणम्। अर्थात् स्वशब्दे यत्र आकारस्य स्थाने अकारः विहितः अस्ति तस्य अकारस्य विकल्पेन इत्थं भवति इति उच्यते। किञ्च इदम् आतः स्थाने इति अनुवृत्तं स्वशब्देनैव सम्बध्यते, अन्यैः न सम्बध्यते। किमर्थम् इति चेत् न तु द्वैषयोः असम्भवात्। द्विशब्दः अस्ति एषा इति एतत् शब्दः अस्ति, उभयोः विषये आतः स्थाने आकारस्य स्थाने अकारः, त्रिप्रत्यय आकारस्य स्थाने अकारः इति न सम्बध्यते। किमर्थम्? असम्भवात्। हि सेयिङ्ग् इन् केस् आफ् द्वि एण्ड् एतत् इट् इस् इम्पासिबल् टु फैण्ड् एन् अकार विच् हस् रिप्लेस्ड् त्रिप्रत्यय आकार। एस् यू आलरेडि सीन् इन् केस् आफ् द्वि एण्ड् एतत् इट् विल् अप्लै ओन्ली फार् द केवलशब्द एण्ड् नाट् वेन् दट् इस् अ पूर्वपद। Okay. So in this case, we are applying the task after we do the samasa. In case of samasa, we are applying akach. So in case of vi and etat, we are applying akach. And then we are applying tap. We do akach and then we do tadadi namaha and you have akaranta and then we apply tap. So in both these cases, since there is no kapratyaya, if there is kapratyaya, kenaha ityanena hasvaha bhavati. There is a shortening of the previous akara by kenaha. Now, since both these are sarvanamas, we apply akach and not ka. Since it is akach, there is no possibility for applying kenaha. So, there is no hrasva akara which is replaced akara. So, because of that, atah sthane, yaha at tasya iti, asambhavaha, it is impossible to find that condition satisfied in case of dvi and etat. Because both of them being sarvanamas, they get only akach and the stripratyaya akara is never replaced by akara. Okay. So, atahasthane iti anuvrittam dvaishayohu na sambathyate, kimartam asambhavat. Napi anyesham avyabhijagat. Whereas in case of the other words, whether it is bhastra, aja or jnya, avyabhichara, always akara is replaced by akara. So they always have the kapratyaya. Sarvatra kenaha ityanena hasvaha bhavati, atahasthane akaraha bhavatyeva. Tathasati atahasthane iti visheshanam napekshitam. Always remember that thing about visheshana. Okay. A visheshana is always has to have a purpose. Okay? The visheshana, the purpose of an adjective is vyavritti. It is to separate one thing from the rest. Say when you are saying there is a, say, neela kamalam, if you are saying it is a blue lotus, the visheshana is fruitful only when it manages to separate that particular set of lotuses from the rest. That is, there are pink lotuses, there are white lotuses, and there are blue lotuses. In such a case, when you say blue lotus, you are referring to one particular flower. Okay? You are separating out the blue lotus from the white ones and the pink ones. That is why the visheshana is useful. if the case were that lotus were always blue, then there is no point in specifying it as a blue lotus. If lotuses were always blue, tada visheshanam anarthakam. There would be no purpose in putting a visheshana. Okay. Always a visheshana should separate out what you are qualifying. I mean, it qualifies something means there are it is kim vyavartakam visheshanam. Okay. So vyavarta is to separate out what you are qualifying from the rest. In case of vastra, aja or gya, since always akara, akara is replaced by akara, there is no point in saying when akara is replaced by akara, there is vikalpa itva. Avyabhichara, akara is always replaced by an akara in those three cases. Where there is a pratyaya, you have the kapratyaya. Kapratyaya has to say, sarvatra atahasthane akara bhavatyeva. Ataha tatrapi atahasthane iti visheshasya prayojanam nasti. In case of Vri and Esha, it is impossible to find the condition satisfied. In case of the rest, the condition is always satisfied. So for all the five, this Atahasthane will not apply. It will apply only for Svashabda. In case of Sva, there are cases where Akara is replaced by Akara, and there are cases where Akara is not replaced by Akara. So in that case, where the akara is replaced by akara, there we have an optional itva, is what he is trying to say. I'll repeat this so that it's clear. We'll finish what he is saying. So he says, iha hi ataha sthane iti anuruddham svashabdasya ataha visheshanam natu dvaishayohu asambhavat napyanyesha avyabhicharat. Svashabdastu, that is, in case of Svashabda, anupasarjanam atmiyamati akadarhaha. So when it is not an upasarjana, if it refers to atma or atmiya, it has sarvanama samya. Sarvanama samya asti chet akach pratyaha bhavati. Okay. Akach pratyaha bhavati chet atahasthane akaraha na bhavati. Okay. If there is akach, there is no replacement of A by A. So, tada itvam itva vikalpaha na bhavati anena sutrena. Arthantare tu na stri. Arthantare nama kim jyatyathe dhanarthe cha. So, in those senses, strilingam nasti. There is no prayoga in strilingam. Okay. So, those will also not be considered. So now what is left out is samyopasarjana. Then sva is a samya or when it is an upasarjana. In these two cases, akach na bhavati, sarvanama samya nasti ityataha akach pratyaha na bhavati, kapratyaha bhavati. Kapratyaha asti chet kenaha ityanena hrasve ataha sthane akaraha asti tasya akarasya vikalpena itvam bhavati iti uchyate. Ata eva purvameva uktam samyopasarjanartham. Samyopasarjani bhutastu. There is a typing error. It should be samyopasarjani bhutastu. So when sva has either samya or an upasarjana, kapratyantatvat, you add the suffix ka to it, kapratyasya karanena purvasya akarasya sthane akaraha bhavati. Kapratyantatvat bhavati udaharanam. So the example of sva in this particular sutra is Svashabda, which is either a samya or an upasarjana. Is that argument clear? We'll again see it. Evam cha atmiyayam. So if it is atmiya, atmiya arthe sarvanama samya asti, tena svika paramasvika iti nityameva itvam. Akarasya sthane akaraha nasti ityataha anena sutrena itva vikalpaha na bhavati nityam itvam bhavati svika paramasvika iti. So yada tu samnya bhavati athava upasarjanam bhavati tada nisvaka nisvika nirgata svasyaha iti vigrahe upasarjanam. In nisvaka and nisvika svashabda is upasarjana. तो आकार से स्थाने अकार अस्ति तस्य विकल्पेन इत्त्वं भवति निस्वका निस्विका इति अस्य सूत्रस्य उदाहरणं. सो द सेम थिंग रविचंदन जी टोल्ड मी दिस इज फ्रॉम द actually from the Padmanjali commentary of Kashika. This has been quoted by Bhattoji Dikshita in the Pravathamanorama. So the Karika goes like this. He has put the same thing in the form of a Karika. Atratasthana ityetat swashabdasya visheshanam. Atra nama bhaktarisha iti sutre. Atahasthane iti anuvartate udhita matasthane iti swashabdasya visheshanam. It qualifies the word sva. वै संभव व्यभिचारो हि तत्रस्थः स्वशब्द विषये संभवः अस्ति अर्थात आकारस्य स्थाने अकारस्य संभवः अस्ति व्यभिचारः अपि अस्ति अर्थात आकारस्य स्थाने अकारः न भवति इत्यपि अस्ति यत्र उभयम् अस्ति संभवः अपि भवेत् व्यभिचारः अपि भवेत् तत्रैव विशेषणम् as I said saying something say नीलकमलम् is correct only where there is sambhava, that there should be a blue lotus. If there is no blue lotus at all, then there is no point in saying blue lotus, giving the visheshana to the lotus as blue. Vyabhichara, and also if all lotuses are blue, if there is no vyabhichara, if there is no lotus which is not blue, then also there is no point in specifying that qualifier as blue. So yatra sambhavaha bhavati, vyabhicharaha cha bhavati, तत्रैव विशेषणं भवितुम् अर्हति. तत्र स्वशब्दस्य विषये संभव व्यभिचारो स्तः संभवः अस्ति काकचो सतोः कप्रत्यये सति आतः स्थाने अकारस्य संभवः अस्ति अकति सति आकारस्य स्थाने अकारः न भवति अतः संभवः अपि अस्ति व्यभिचारः अपि अस्ति. द्वैषयोः संभवो नास्ति. इन् केस् आफ् द्वा एण्ड् एषा देर् इस् नो संभव आफ् हेविङ्ग् आतः स्थाने अकारः. किमर्थम्? उभयोः सर्वनामत्वात् सर्वत्र अकदेव भवति. न अन्यत्र व्यभिचारिता. अन्येषां विषये भस्त्रा अजाद्या इत्येतेषां विषये व्यभिचारः नास्ति. अर्थात् सर्वदा आकारस्य स्थाने अकारः भवत्येव. अतः संभवव्यभिचारौ स्वशब्दस्य विषये एव स्तः. अतः अत्र आतः स्थाने इति विशिष्यते. तेन किं फलम्? तेन सर्वनाम्नः स्वशब्दस्य नायं विधिर्भवेत्. यदि सर्वनामसंज्ञा अस्ति स्वशब्दस्य तदा अयं विधिः भस्तैषा इति विधिः न भवति. अर्थात् विकल्पेन इत्थं न भवति सर्वनाम्नः. आतः स्थाने अकारः नास्ति इति कारणेन. यत्र सर्वनामसंज्ञा नास्ति अर्थात् संज्ञार्थे उपसर्जनार्थे च तत्रैव अस्य सूत्रस्य प्रवृत्तिः. This is a bit complicated to understand in the first go. If you don't understand it, don't worry. Just go back and listen to this again. Things might be clearer. Not with the Purva Pada. No. No, I'm saying the Atah Sthane, the Visheshana Atah Sthane will not apply to Dva and Esha. It will not apply, if there is a Purva Pada, then there is no Itva at all. Because the Taf is preceded by Sup. Asupaha iti Pratishedhata. Purva Pada Masti said, Itvasya Prasaktireva Nasti. There is no Itva. So in case of Jasdvika, Vike Paramatvike, Itva will apply, the Sutra will apply. But the Visheshana Atah Sthane will not apply. Because the akara is not derived from akara in those two. Yes, it is not nitya strilinga. It can be in strilinga. It can be in pullinga or strilinga. It is you can have pullinga as swaha, which is one's own, and you can also have strilinga. In this case, we are discussing only strilingas, because, I mean, okay. Not necessarily. I mean, even in the sense of atmiya, it can be pullinga or strilinga. So we are considering strilinga here because we need the tap and everything else. So if it is jnati or dhana, it is not in strilinga. That is there. Yasyarthe dhanarthe strilingatvam nasti. Kintu atmarthe atmiyarthe pullingatvam api asti, strilingatvam api asti. Yes, we do akach. And because it is akach, there is no replacement of akara by akara. Yes. It will have a nityaitva by pratyasthatka. The next sutra, Abhashita Pumskaccha. Itva prakarane eva, Abhashita Pumskaccha, iti paradvayam asti. Satyasthat kaad purvasya taidakuspaha iti navartate, ulija matasthane iti pi anavartate. Etasmaad vihitasya, etasmaad nama Abhashita Pumskaad vihitasya, atahasthane ataha, itraakarasya sthane akaraha asti, tasya itvam vikalpena bhavati. We will see the Vyakhyana in Abhashita Pumskaccha. Ulcha Matahasthane Ittyanuvartate Atayiditichan. Abhashitaha Puman Yena Iti Vigraha. Bhashita Pumska and Abhashita Pumska are words which we use pretty often in grammar. Bhashita Pumska is one, is a word which is already told a masculine vyakti. That is, to put it simply, a word which is both in Pullinga and Strilinga is called Bhashita Pumska. So if you have the word Aja, it also exists in Pullinga. A word which is Nitya Strilinga, on the other hand, it is compulsory Strilinga, they are called Abhashita Pumska. That is, they do not exist in Pullinga. Okay? Abhashitaha Puman Yena Iti Vigraha Vihitasya Iti Dhyaha. So, Abhashita Pumskaccha means, so, for a word which is in, compulsorily in Strilinga, Nitya Strilinga, in Padani Iti Arthaha. So, etasmad vihitasya atah sthane atah itvasya. Ganga ka gangika. Ganga shabdaham akaranta strilinga. Ganga is a nitya strilinga. So, ganga itasmad kaprateha kriyate. Smarthe kaprateha. Kenaha itanena purvatra akarasthane akaraha hrasaha. So, you have ganga ka punaha tap kriyate. Ganga ka itasmad. Atra, ayam abhashita pumskaha, atahasthane akaraha asti, vikalpena itve gangika iti rupam, itva bhave gangaka iti rupam. Similarly, if you have hastra, which we are discussing in the previous rule, bhastra iti nitya strilingam, tatra api bhastraka, bhastrika iti rupadvayam, anena sutrena siddhyati. Bahuvrihehe bhashita pumskatvat tato vihitasya nityam. If you come to a bahuvrihi samasa, when there is a word in bahuvrihi, bahuvrihi is always bhashita pumska. Because bahuvrihi samasaha anya padartha pradhanaha. Anything which you are telling as a bahuvrihi samasa is always an adjective to something else. Anya padartha pradhanam. Now that something else can be in all three lingas. So if you are saying pitam ambaram yasya, it can be pitam ambaram yasya saha, yasya sa, or yasya tat. always bahuvrihi samasa can exist in all three lingas because it does not have its own meaning. It will always qualify something else, and that thing can be pullinga, strilinga, napumsakalinga. So because of that, bahuvrihi samasa is always bhashita pumska. Tasmat बहुव्रीहेः भाषितपुंस्कत्वात् ततो विहितस्य बहुव्रीहि समासात् यदा टाप् भवति आकारस्य स्थाने आकारः भवति तस्य नित्यमेव इत्वं भवति न तु विकल्पेन. सो इट् विल् नाट् हाव् अ वैकल्पिक इत्वम्, इट् विल् हाव् अ कम्पल्सरि इत्वम्. अज्ञाता अखट्वा अखट्रिका इति उदाहरणं दीयते. सो इफ् यु लुक् एट् द व्याख्यान फोर् दट् बहुव्रीहेः इति प्रतीके अविद्यमाना खट्वा यस्याः इति विग्रहे. सो दट् इस् द बहुव्रीहि. अविद्यमाना खट्वा यस्याः इति विग्रहे नयोस्त्यर्थानां वाच्यो वाचोत्तरपदलोपः इति बहुव्रीहौ कृते विदु बहुव्रीहि समासः. विद्यमानपदलोपे अविद्यमाना खट्वा, द विद्यमान विल् गेट् डिलीटेड्, सो यु हाव् अ एण्ड् खट्वा. विद्यमानपदलोपे नयो नलोपे, यु हाव् द नै वित् नलोपो नन्यः इत्यनेन नकारस्य लोपे, यु हाव् अ एण्ड् खट्वा. शेषाद्विभाषा इति कब् अभावपक्षे. नौ इन् बहुव्रीहि देर् इस् अ समासान्तप्रत्यय विच् वि हाड् काल्ड् कप्. शेषाद्विभाषा इत्यनेन शैशिकः कप् इति उच्यते. सो इट् इस् अ कप्. सो कब् अभावे, सो वि आर् ट्रीटिङ्ग् द केस् वेर् देर् इस् नो कप् प्रत्यय. कबभावपक्षे गोस्त्रियोः इति सहस्वे. नौ यु हाव् अ खट्वा. खट्वा इस् अन् आकारान्त नित्यस्त्रीलिङ्ग. खट्वा इति नित्यस्त्रीलिङ्गशब्दः, किन्तु यदा अविद्यमाना खट्वा यस्याः इति बहुव्रीहिः क्रियते तदा तु भाषितपुंस्कत्वं भवति. गोस्त्रियोरपसर्जनस्य इति ह्रस्वे. सो देन् यु डु ह्रस्व, इट् बिकम् अखट्व. अखट्वशब्दात् तापि. नौ वि आड् टाप् आन् इट्, so it becomes akhatva. Supi agyatadu ke, once you add that tap, then it becomes you add ka pratyaya. Agyate ka pratyaya vidhiyate. So akhatva ka ityasti subluki kenaha iti hrasve. Now this tap will get hrasva. The tap added akhatva ityatrayaha tap asti tasya kenaha ityanena hrasva kriyate. Punaha tapi. Now again you add tap. There is one bahu tap initially. Khatva ityatra tu tap asti tasya gostriyo rupasarjanasya ityanena hasvaha bhavati. Punaha bahuvrihi samase krute tap pratyaha kriyate tasya tapaha kenaha ityanena kapratyaye pare hasvaha kriyate. Kapratyayantasya punaha tap kriyate. So you should remember that there are three tap pratyayas here. Initially on khatva there was a tap which is shortened by Gostriya Upasarjanasya. After the samasa you add a tap which is then shortened by Kenaha. So on the Kapratyayanta again there is a tap. Okay? So you have a shortened tap and you have the original tap. Tapi pare atahasthane hakaraha tasya akhatva ityatra vakarottarasya akarasya vikalpena ittvam bhavati ityarthaha. केणः इति ह्रस्वे. पुनः टापि अभाषितपुंस्काद् विहितस्य आतः स्थाने अतः अभावात् न इत्वविकल्पः. इन् दिस् केस् सिन्स् द आकार विच् हेस् बीन् कन्वर्टेड् टु अकार ईस् अ भाषितपुंस्क, दट् इस् विच् हेस् बीन् एडेड् टु बहुव्रीहि समास. तेन कारणेन अभाषितपुंस्काद् विहितस्य आतः स्थाने अतः अभावात् न इत्वविकल्पः. देर् इस् नो वैकल्पिक इत्व, किन्तु प्रत्ययस्थात् इति नित्यम् इत्वम्. सो देर् इस् अ कम्पल्सरि इत्व वै प्रत्ययस्थात् कात् पूर्वस्य अतः. सो इट् बिकम्स् अखट्विका. शैशिके कपितु विकल्प एव. Now, as I told, in बहुव्रीहि समास there is an optional समासान्त which is added, it is called कप्. Now the previous case, whatever we discussed, was when there was no kap. Kabhavave क प्रत्ययः अज्ञातार्थयः च प्रत्ययः तत्पक्षे विकल् नित्यमेव इत्थं भवति. शैषिके कपि तु आन् द अदर् हेण्ड् इफ् यु हा डू द कप् बै शेषाद्विभाषा तदा तु अनेन सूत्रेण विकल्पेन इत्थं भवति इति उच्यते. किमर्थम् इति चेत् शैषिके कपि तु इति सो दट् इस् द प्रतीक न सु खट्वास् इति अवस्थायां कप् कपि सुप्लुक् यु हेण्ड् शेषाद्विभाषा कप् एण्ड् देन् वि डिलीट् द सुप् प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात् नयोस्त्यर्थानाम् इति बहुव्रीहि समासः. सो वि इनिशियलि एड् कप् एण्ड् देन् देर् इस् बहुव्रीहि. समासान्तः इत्यन्वर्थसंज्ञाबलात् कबन्तस्य एव समासत्वम्. सो द टोटल् थिङ्ग् नौ यु हेव् द अखट्वा क द एण्टैर् थिङ्ग् इस् अ समास. ततश्च अकट्वाकशब्दे अकट्वा इत्यंशस्य उपसर्जनस्त्रीप्रत्ययान्त गोस्त्रियोः इति ह्रस्वः न भवति. सो नौ देर् इस् नो गोस्त्रियोरुपसर्जनस्य इस् वाट् हि वाट्स् टु से बिकास् आफ् हौ गोस्त्रियोरुपसर्जनस्य इस् इण्टर्प्रेटेड् देर् इस् नो उपसर्जनसंज्ञा देर् आर् रादर् द उपसर्जन इस् नाट् एट् द एण्ड् आफ् अ समास एण्ड् देर् फोर् देर् इस् नो ह्रस्व अखट्वाक नापि केणः इति ह्रस्वः न कपि इति निषेधात्. सो देर् इस् नो ह्रस्व अगेन् बै केणः आल्सो बिकास् न कपि इति निषेधः अस्ति. सो यु हेव् अखट्वा क किन्तु आपोन्यतरस्याम् इति ह्रस्वविकल्पः. देर् इस् अनदर् सूत्र आपोन्यतरस्याम् विच् गिव्स् एन् आप्शनल् ह्रस्व. सो नौ इट् बिकम्स् अखट्वक. तत्र खट्वा शब्दात् विहितस्य कपः प्राग्वर्तिनः टापः अभाषितपुंस्काविहितत्वेन तत्स्थानिकह्रस्वाकारस्य अयम् इत्थविकल्पः भवत्येव. What you have to notice in both these cases, if you go home and write down the prakriya, what we did in the previous case was, there was the initial tap on khatva. Khatva is a nitya strilinga. On it there was a tap. That tap was shortened by gostriya rupasarjanasya. Then, on the bahuvrihi samasa, we added a tap. And that tap was shortened by kenaha. So what you hear finally in the previous case, akhatra, Agyata Akhatva Akhatrika is the tap on the Bahuvrihi Samasa has been shortened. Since Bahuvrihi Samasa is not Abhashita Pumska, this sutra will not apply there. On the other hand, when you do Kap, so when you are adding Kap, the original tap on the Khatva Shabda is being shortened by Aponitarasya. On Bahuvrihi, you are not adding any tap. So, initially, you are adding the kap and the original khatva, the akara is being shortened. Since khatva is an abhashita pumska, when you add the shaishika kap, this sutra will apply. Abhashita pumska se kyanena itta vikalpaha bhavati. Uchyate, ata eva, shaishike kapitu vikalpa eva. Iti uchyate. तदा तु अखट्विका अखट्वका इति रूपद्वयं भवति. यदा बहुव्रीहिसमासात् क प्रत्ययः क्रियते तदा तु नित्यमेव इत्थम् अखट्विका इति. अग्रिमं सूत्रमस्ति अस्मिन् प्रकरणे अन्तिमं सूत्रं द लास्ट् सूत्र इन् द इत्वप्रकरण वि स्टार्टेड् इत्व वित् प्रत्ययस्थात् कात् पूर्वस्य अपेदाप्यस्तः देन् वि हेड् नयासयोः उदीतामातस्थाने एकपूर्वायाः भक्त्रैषादाज्ञाद्वास्वाने पूर्वाणपि अभाषितपुरस्कात् च एण्ड् फैनलि वि हेव् आचार्याणाम् इति पदद्वयम् अस्ति. पूर्वसूत्रविषये आत् वा स्यात् पूर्वसूत्रविषये अर्थात् अभाषितपुंस्कात् विहितः यः आकारस्य स्थाने अकारः तस्य विकल्पेन आकारादेशः भवति. इन् आल् द प्रीवियस् केसेस् वि वर् रिप्लेसिङ्ग् इट् वित् एन् इकार. यु हेड् गङ्गा इट् बिकेम् गङ्गका एण्ड् गङ्गिका. नौ हि दिस् पूर्वसूत्रविषये आत् विकल्पेन भवति. इकारस्य इकारादेशः पूर्वसूत्रेण कृतः. अनेन सूत्रेण तु विकल्पेन आकारादेशः क्रियते. तत्रैव गङ्गा क इत्यस्ति गङ्गका इत्यत्र आकारादेशे कृते गंगा आकार इति अपरं रूपं. सो देयर आर थ्री फॉर्म्स. वन फॉर्म विद ह्रस्व आकार विच इज गंगा का. वन फॉर्म विद एन इकार विच इज गंगिका. एंड अनदर फॉर्म विद एन आकार दीर्घ आकार विच इज गंगा का. सो इफ इट इज एन अभाषित पुंसका इफ इट्स अ नित्य स्त्रीलिंग वर्ड देयर आर थ्री फॉर्म्स. इत्व विकल्पे इत्व पक्षे एकम रूपम. आत्मपक्षे एकम रूपम. भयोः अभावे ह्रस्वकारः श्रूयते तत्र एकम रूपम. देयर आर थ्री फॉर्म्स इन दैट केस. So that ends the itva prakarana in the there's one more thing left. Upta pumska to shubhrika. If it is a bhashita pumska, all this will apply only if it is an abhashita pumska, right? So upta pumska to shubhrika. If you look at shubhrika, shubhra ityasmat ka pratyaha kriyate. Shubhra is a visheshana which applies to both pullinga and strilinga, right? So शुभ्रिकेति शुभ्र शब्दः विशेष्य निघ्नः. दिस इट इज अ विशेषण अनियत लिंगः. स्त्रीलिंग एव इति नास्ति. पुल्लिंगे अपि भवितुम् अर्हति. स्त्रीलिंगे अपि भवितुम् अर्हति. ततः स्त्रियां तापि शुभ्रा शब्दात् कः केणः इति ह्रस्वः पुनस्ताप. अत्र कात् पूर्ववर्तिनः तापः अभाषित पुंस्कात् विहितत्व अभावात्. सिंस द वर्ड शुभ्र इज नॉट एन अभाषित पुंस्क तत्स्थानिकस्य अतः न इत्व विकल्पः. देयर इज नो इत्व विकल्प. किंतु प्रत्ययस्थात् इति नित्यम इत्वम्. देयर इज अ कंपल्सरी इत्व बै प्रत्ययस्थात् कात् पूर्वस्य अतः. सो नाउ दैट इज द एंड ऑफ द इत्व प्रकरण which Dikshita started because of the prasanga vashat. We were dealing with tap. Come back to the three pratyaya prakarana. Kimadhitam priyam ityadhikare ajatyatashtap ityanena tap pratyayah evam daubhabhyam anyatarasyam ityanena dap pratyayashta adhitah. We have covered those two pratyayas. So api pare pratyasthat kat purvasya atait api iti uktatvat prasanga vashat आपि परे इत्वं भवति इति इत्व प्रकरणम् उक्तं दीक्षितैः. He has included the इत्व प्रकरण here because the इत्व occurs when followed by either tap or dap. So coming back to the three pratyaya series, if you see that these sutras starting from pratyasthat, they lie in the 7th chapter 7.3.44 and onwards. So they do not belong to the stri pratyaya prakarana as per, the ashtadhyayi. Ashtadhyayam tu striyam ityadhikare na santi etani sutrani. So if you come back to the order of ashtadhyayi, we have covered till 4.1.13. Lavubhavyam anyatarasyam iti sutra paryantam adhitam. Itah param punaha tatraiva agachhamaha anupasajjanat ityadhikaraha arabhyate. अधिकारोयम् यूनस्तिहि इत्यभिभाव्य. यूनस्तिहि इति अस्यैव पादस्य सप्तसप्ततितमं सूत्रम्. द 77th सूत्र एंड द लास्ट सूत्र इन स्त्री प्रत्यय प्रकरण इज यूनस्तिहि. ओके सो टिल देन वी हैव द अनुपसर्जन अधिकार. स्टार्टिंग नाउ टिल द एंड ऑफ यूनस्तिहि इत्यभिव्याप्य अनुपसर्जनात् इत्यधिकारः प्रवर्तते. Upasarjana means when it is not an upasarjana. Upasarjana nasti arthata pradhanyam yatra bhavati tatra eva uchyamanani te uchyamanaha pratyaha bhavanti ityarthaha. Ayam eva stri pratyayeshu taranta vidhim vyapayati. This adhikara indicates that there is taranta vidhi in case of stri pratyayas. What is the problem here? If you look at the Vyakhyana, Yunasthihi Ityadhi Vyakhyam. Yunasthihi Ityatrapi Ayam Adhikaraha. So this Adhikara goes on till Yunasthihi, Natu Tatah Prak. There are two ways of defining an adhikara. Sometimes we say it goes till the sutra and not including the sutra. Here, including yunastihi, this adhikara will apply. Atracha vyakhyanam eva sharanam. So how do you decide that this adhikara goes till yunastihi? It depends on the commentary, that is Vibhashya and other commentary. Now, atre yadvaktavyam tad yunastihi ityatra vakshyate. So there is some more thing which we will see in yunastihi. ननु बहवः कुरुचराः यस्यां सा बहुकुरुचरा नदमतिक्रान्ता अतिनदा इत्यादिषु उपसर्जनेषु कुरुचरनदादिशब्देभ्यः चिट्ठाणै इत्यादिना विधीयमानानां नीवादिप्रत्ययानां प्रसक्तिरेव नास्ति समासविधौ तदन्तविधिप्रतिषेधः. नौ वाट् इस् द पर्पस् आफ् अनुपसर्जनाधिकार? अस्य अधिकारस्य किं प्रयोजनम् इत्युक्ते, उपसर्जनं यत्र भवति तत्र प्रत्ययः न भवति. यथा टिड्ढाणै इति अग्रिमसूत्रेण नीप् प्रत्ययः विधीयते. बहवः कुरुचराः इति यदा उपसर्जनमस्ति, टित् तत्र चरट् इति टित् टिदन्तं कुरुचरशब्दः, यदा तस्य उपसर्जनत्वमस्ति तत्र नीप् प्रत्ययः न भवेत्. बहुकुरुचरा इत्येव रूपं, न तु बहुकुरुचरी इति. एवं नदट् इति टित् भवति, नद इत्यस्य नदी इति भवति. यदा नदशब्दस्य उपसर्जनत्वमस्ति तदा ङीप् प्रत्ययः नेष्यते. अतः उपसर्जनस्य ङीपादिप्रत्ययं वारयितुम् अनुपसर्जनाधिकारः. सो द पर्पस् आफ् दिस् अधिकार इस् टु प्रिवेण्ट् अप्लिकेशन् आफ् त्री प्रत्यय वेन् सम्थिङ्ग् इस् अ उपसर्जन. इस् दिस् नीडेड्? इदम् अपेक्षते वा इति प्रश्नः. किमर्थम्? अत्र तदन्तविधिरेव नास्ति. He says there is no tadanta vidhi. If there is no tadanta vidhi, pradhanam va bhavatu, upasarjanam va bhavatu, prapti reva nasti. If there is no tadanta vidhi, then whether it is upasarjana or pradhana, you cannot apply the sutra. Now, why is there no tadanta vidhi? Yena vidhis tadantasya, samasa pratyaya vidhau pratishedhaha. Pratyaya vidhau tadanta vidhehe pratishedhaha. When it is a pratyaya vidhi, there is no tadanta grahana. If there is no tadanta grahana, upasarjanam va bhavatu, pradhanam va bhavatu, tatra praptireva nasti. Tarhi kimartham anupasarjanat iti nishedha iti cheta, ayameva sri pratyayeshu tadanta vidhim nyapayati. Panini is saying anupasarjanat. That itself indicates that there is tadanta vidhi in sri pratyaya. Sri pratyayeshu tadanta vidhi asti, tadanta vidhau satau sati, प्रधानस्यापि प्राप्नोति उपसर्जनस्यापि प्राप्नोति. तत्र प्रधानस्यैव भवेत्, उपसर्जनस्य न भवेत् इति निषेधार्थम् अनुपसर्जनात् इत्यधिकारः. बै सेयिङ्ग् अनुपसर्जनात् पाणिनि इण्डिकेट् दट् देर् ईस् तदन्तविधि इन् स्त्री प्रत्यय. इवन् दो द वार्तिका सेस् समासप्रत्ययविधौ प्रतिषेधः, यद्यपि प्रत्ययविधौ तदन्तविधेः प्रतिषेधः अस्ति, तथापि स्त्रीप्रत्ययेषु तदन्तविधिः भवति. कथं ज्ञायते? अनुपसर्जनात् इत्यधिकारेण एव ज्ञायते. यदि तदन्तविधिः नास्ति तर्हि अनुपसर्जनात् इत्यधिकारस्य प्रयोजनं नास्ति. द एण्टैर् द सूत्र इस् वेस्ट् इफ् देर् इस् नो तदन्तविधि. बिकास् इफ् देर् इस् नो तदन्तविधि, तदन्तस्य प्रधानस्य वा उपसर्जनस्य वा प्राप्तिरेव नास्ति. यदि प्राप्तिः नास्ति तर्हि किमर्थं निषेधः? Why should you say anupasarjana? If it will not apply to upasarjana at all, then there is no point in saying anupasarjana. Ataha ayameva paninina anupasarjanat iti nishedaha uchyate tenaiva jnayate stri pratyayeshu tadanta vidhihi asti. Ayameva is what we read just now. So the first sutra under anupasarjana adhikara is tiddhanai vayasach dagnai matrach tayoptakhai kai korapaha. The long sutra, ekameva padamasti, tit, dha, anj, any, vayasach dagnach matrach tayoptakhai kai korapaha. So apart from tit, the rest are all pratyayas. There are different pratyayas. So if there is a word which is ending in any of these pratyayas, it will get neep. Okay. So, tra, इत्यधिकारः अस्ति स्त्रियाम् इत्यधिकारः अस्ति अनुपसर्जनात् इति त्रयः अधिकाराः सन्ति अजाद्यदष्टाप् इत्यतः अतः इति अनुवर्तते ऋणेभ्यो नीप् इत्यतः नीप् इति अनुवर्तते सो वि आर् कण्टिन्यूयिङ्ग् वित् नीप् सो इन् बिट्वीन् वि स्टार्टेड् वित् नीप् ऋणेभ्यो नीप् उगितश्च वनोरच पादोन्यतपस्यां वि स्टडीड् नीप् देन् देर् वास् अ डीवियेशन् टु टाप् by Tavrisi and then Nashat Sastradibhyaha Manaha Anobahubrihe where there was Nishedha Paniyip and Tav and then there was Dab by Dabubhabhyam Anyatarasya. Now we are coming back to the Neep series. Svatra Neep Pratyaha Havati Anupasarjanam Yat Tidadi Svachit Dha and etc. They are all when it is an Anupasarjana Tadantam Yat Adantam Pratipadikam ह्रस्व आकारांत प्रातिपदिक विच इज एंडिंग इन एनी ऑफ दोस टिट एटसेट्रा ततः स्त्रियां नीप स्यात् सिंस स्त्रीलिंग सच वर्ड्स विल गेट नीप प्रत्यय सो टिट धाणे इति टिट ध अण ऐ द्वयसच दघ्नच मात्रच तय ठै कै क्वरप एषां द्वादशानां समाहारद्वन्द्वात् पञ्चम एकवचनम् सो क्वरपः इस् पञ्चमी एकवचनम् सो एडिंग एडेड टु दीस् थिंग्स् यु एड् नीप् ओके धादयः एकादश प्रत्ययाः एक्सेप्ट् टित् स्टार्टिंग् फ्रम् ध अण्ड् एक्सेट्रा देर् आल् प्रत्ययात् प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् सो प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषया ढान्तम् अण्णन्तम् अन्यन्तम् इत्यादि लभ्यते टित् तु प्रत्ययः अप्रत्ययश्च टित् केन् ईदर् बी अ प्रत्यय आर् एन् अप्रत्यय टिदादिभिश्च प्रातिपदिकात् इति अधिकृतं विशेष्यते सो दिस् टित् इस् इन् टर्न् अ विशेषण टु प्रातिपदिक सो अगेन् देर् इस् टु तदन्तविधिः प्रत्ययग्रहणपरिभाषया एकः तदन्तविधिः येन विधिः तदन्तस्य इत्यनेन अपरः तदन्तविधिः टिदादिभिश्च प्रातिपदिकात् इत्यधिकृतं विशेष्यते विशेषणत्वात् तदन्तविधिः ततश्च टिदन्तात् ध अणादिप्रत्ययान्तान्ताच्च प्रातिपदिकात् इति लभ्यते सो प्रातिपदिका विच् इस् टित् एण्ड् प्रातिपदिका विच् एण्ड्स् इन् ध अण्ड् एट्सेट्रा प्रत्ययाज् लैक् ध अण्ड् एट्सेट्रा So for words which end in these, tadantat, striyam, neep, bhavati. Okay, so let us go. Tadantavidhi, anupasarjanadityetat, shruteshu, tridadishu, eva, anveti, natu, tadanteshu. So this we will see later, where does the anupasarjanat apply? Striyam, iti adhikatam. So you have the stri adhikara. So the sutrartha is, अनुपसर्जनं यत् पिदादि तदन्तं यदनन्तं प्रातिपदिकं ततः स्त्रियां नी स्यात् सो एक्साम्पल्स् आफ् दिस् सूत्र विल् सी इन् द नेक्स्ट् क्लास् एनी क्वेश्चन् नमस्कृत्य ऋक्तीश्वरिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं सुरक्षते